गणानां त्वा गणपतिगं हवामहे कविं कवीनामुपमश्रवस्तवम् ज्येष्ठराजं ब्रह्मणा ब्रह्मणस्पत आनश्रण्वमनोतिभिः सेदसादनम् प्रणो देवे सरस्वते वाजिनेवते धीनामवित्रयवतो गणेशाय नमः सरस्वते नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवम् बभूवते धनुः शिवाशरव्यायातमतया नो रुद्रमृढया याते रुद्र शिवा तनोरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्दाभिजागसे यामिषुम् गिरिशन्दहस्ते विपश्यस्तवे शिवाम् गिरित्रताम् कुरु माहि कुंसेः पुरुषम् जगत् शिवे नवचता त्वा गिरिशाच्छावरामसे यथा नः सर्वविज्जगत यक्ष्मगुम् सुमना असत् अध्यवोच दधि वक्ता प्रथमो दैव्योऽभिषग अहेकश्च सर्वाञ्जम्भयन् सर्वाश्रयातु धान्यः असो यस्ताम्रो अरुण उत बभ्रः सुमङ्गलः ये क्षेमागुम् रुद्रा अभितो दिक्षु श्रुता सहस्रशो वै शोगुम् हेड एमहे असौव्यो सर्पति नीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुतहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृडयाति नः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मेढुषे अथो ये अस्य सत्त्वानो हन्देभ्यो करन्नमः प्रमुञ्जदन्वनस्तभुभयोरात्रियोर्या याश्च ते हस्त इषवः पराता भगवो वप अवतत्यधनुस्तगुम् सहस्राक्षशरेषु हे निशेरशल्यानामुखा शिवो नः सुमना भव विज्यम् दनुः कपर्दिनो विशल्यो बाणवागुम् उता अनेशन्नस्येषव आभुरस्य निषङ्गतिः याते हे धर्मेढष्टमहस्ते बभूवते तनुः तया स्वान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायानाततय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अतो य इषुधिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्धकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ. ನಮೋ ಹಿರಣ್ಯವಾಹವೇ ಸೇನಾನ್ಯೇ ದಿಶಾಂಚ ಪತಯೇ ನಮೋ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯ ಪಶೂನಾಂ ಪತಯೇ ನಮೋ ನಮಃ. ಸಸ್ಪಿಂಜರಾಯತ್ತು ಶ್ರೀಮತೇ ಪಧೀನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಪಪೃಷಾಯ ವಿವ್ಯಾಧಿನೇನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಹರಿಕೇಶಾಯೋಪವೀತಿನೆ ಪುಷ್ಟಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಭವಸ್ಯ ಹೇತೇ ಜಗತಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ರುದ್ರಾಯ ತಥಾ ವಿನೇ ಕ್ಷೇತ್ರಾಣಾಂ ಪತಯೇ ನಮೋ ನಮಃ. ಸೂತಾಯ ಹಂತ್ಯಾಯ ವನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ರೋಹಿತಾಯ ಸ್ತಪತಯೇ ವೃಕ್ಷಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಮಂದ್ರಿಣೇ ವಾರಿಜಾಯ ಕಕ್ಷಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಭುವಂತಯೇ ವಾರಿವಸ್ಕೃತಾಯ ಔಷಧೀನಾಂ ಪತಯೇ ನಮೋ ನಮಃ. ಉಚ್ಚೈರ್ಕೋಶಾಯ ಕೃಂದಯತೇ ಪತ್ತೀನಾಂ ಪತಯೇ ನಮೋ ನಮಃ. ಕೃಷ್ಣವೀತಾಯ ಧಾವತೇ ಸತ್ವನಾಂ ಪತಯೇ ನಮಃ. ನಮಃ ಸಹಮಾನಾಯ ದಿವ್ಯಾಧಿನ ಆ ವ್ಯಾಧಿನೀನಾಂ ಪತಯೇ ನಮೋ ನಮಃ. ಕಗುಭಾಯ ನಿಷಂಗಿಣೇ ಸೇನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ನಿಷಂಗಿಣ ಇಷು ಧಿಮತೇ ತರಸ್ಕರಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ವಂಜತೇ ಪರಿವಂಜತೇ ಸ್ಥಾಯೂನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ನಿಚೇರವೇ ಪರಿಚರಾಯಾರಣ್ಯಾನಾಂ ಪತಯೇ ನಮೋ ನಮಃ. ಶೃಗಾಭಿಭ್ಯೋ ಜಿಗಾಗುಂ ಸದ್ಭ್ಯೋ ಮುಷ್ಣತಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಶ್ರೀಮದ್ಭ್ಯೋ ನಕ್ತಂಜರಭ್ಯ ಪ್ರಗೃಂದಾನಾಂ ಪತಯೇ ನಮೋ ನಮಃ. ಉಷ್ಣೀಷಿಣೇ ಗಿರಿಚರಾಯ ಕುಲುಂಜಾನಾಂ ಪತಯೇ ನಮೋ ನಮಃ. ಇಷುಮದ್ಭ್ಯೋಧನ್ಭಾವಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಃ. ಆದನ್ವಾನೇಭ್ಯ ಪ್ರತಿದಧಾನೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಃ. ಆಯಚ್ಛದ್ಭ್ಯೋ ವಿಸೃಜದ್ಭ್ಯಶ್ಚ ಭೋ ನಮೋ. ನಮೋಸ್ಯದ್ಭ್ಯೋ ವಿಧ್ಯದ್ಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಃ. ಆಸೀನೇಭ್ಯ ಶಯಾನೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಃ. ಸ್ವಪದ್ಭ್ಯೋ ಜಾಗ್ರದ್ಭ್ಯಶ್ಚ ಭೋ ನಮೋ. ನಮಸ್ತಿಷ್ಠದ್ಭ್ಯೋ ಧಾವದ್ಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಃ. ಸಭಾಭ್ಯ ಸಭಾಪತಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ಅಶ್ವೇಭ್ಯೋ ಅಶ್ವಪತಿಭ್ಯಶ್ಚ ಭೋ ನಮಃ. ನಮಃವ್ಯಾಧಿನೇಭ್ಯೋ ವಿವಿಧ್ಯಂದೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಃ. ಉಗಣಾಭ್ಯ ಸೃಗುಂಭರೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ಗೃತ್ಸೇಭ್ಯೋ ಗೃತ್ಸಪತಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ವ್ರಾದೇಭ್ಯೋ ವ್ರಾತಪತಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ಗಣೇಭ್ಯೋ ಗಣಪತಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ವಿರೋಬೇಭ್ಯೋ ವಿಶ್ವರೋಬೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ಮಹದ್ಭ್ಯಃ ಕ್ಷುಲ್ಲಕೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ಹೃದಿಭ್ಯೋ ಹೃದಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ರಥೇಭ್ಯೋ ರಥಪತಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಃ. ಸೇನಾಭ್ಯ ಸೇನಾನಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಃ. ಕ್ಷತ್ರುಭ್ಯ ಸಂಗ್ರಹೇತೃಭ್ಯಶ್ಚ ಭೋ ನಮೋ. ನಮಸ್ತಕ್ಷಭ್ಯೋ ರಥಕಾರೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಃ. ಕುಲಾರೇಭ್ಯ ಕರ್ಮಾರೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಃ. ಪುಂಜಿಷ್ಟೇಭ್ಯೋ ನಿಷಾದೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಃ. ಇಷುಕೃತ್ಯೋ ಧನ್ವಕೃತ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ಮೃಗಯುಭ್ಯಶ್ವನಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ. ನಮಃ ಅಶ್ವಭ್ಯಶ್ವಪತಿಭ್ಯಶ್ಚ ಭೋ ನಮಃ. नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युप्तकेशाय च नमः सहस्राक्षाय च शतधन्वरे च नमो गिरिशाय च शिबिभिष्टाय च नमो मेढुष्टमाय चेषुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयते च नमो वृद्धाय च संवृद्धने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रयाय च जेभ्याय च नमः ऊर्म्याय चावस्वन्याय च नमः स्रोतस्याय च द्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च पुत्न्याय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च कल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावभिन्दते च नमो वर्मिणे च वरोधिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रभृशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च नमः तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुदन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः सूद्याय च सरस्याय च नमो ज्ञात्याय च वैषन्दाय च नमः कोप्याय च भट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्द्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः शीर्त्याय च कोल्याय च नमः पार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः शष्ट्याय च भेन्याय च नमः शिकत्याय च प्रभाह्याय च नमः हिरण्याय च प्रभत्याय च नमः किगुंशिलाय च क्षयणाय च नमः कबर्दिने च पुलस्तये च नमो गोष्ट्याय च गृह्याय च नमः स्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्टाय च नमो हृदयाय च निवेष्ट्याय च नमः पागुं संव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पगुरमाणाय चाभिघ्नते च नमः आक्यजते च प्रक्यजते च नमो वक्रिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षेणकेभ्यो नमो विशिन्वक्केभ्यो नम आनिर्हतेभ्यो नम आमेवत्केभ्यः द्रापे अन्धशस्पते दरिद्रन्नीललोकिता एषाम् पुरुषाणाम् एषाम् पशूनाम् माभिर्मा रोमो एषाम् किञ्जनाममत् या ते रुद्रशिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृडजीवसे इमागम् रुद्राय तवसे कपर्दिने शयद्वेराय प्रभरामहे मतिम् यथा न शमसद्विपते चतुष्पते विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोतनो मयस्कृति शयद्वेराय नमसा विधेमते यच्चम् जयोशमनुराय चे पिता ततश्यामतव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्दमुतमान उक्षितम् मानो वते पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोके तनगे मान आयुषि मानो कोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रभावितो वधे हविष्मन्तो नमसा विधेमते आराते गोक्र उत पुरुषग्ने शयद्वीराय सुम् नमस्मेते अस्तु रक्षा च नो अधि च देव ब्रूह्यता च न शर्म यच्च द्विबर्हाः स्तुहि श्रुतम् गर्त सदम् युवानम् मृगन्न भीममुपहर्तृभुग्रम् मृडा च हित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव बन्धुसेनाः परिणो रुद्रस्य हेतुर्वृणक्तु परित्वेषस्य दुर्मतिरकायोः अवस्थिरा भगवत्यस्तनुष्वमेढस्तोकायतनयाय मृडया मेढुष्टम शिवतम शिवो नः सुमना भव परमे वृक्ष आयुधम् निधाय कृत्यम् वसा न आचर पिनागम् बिभ्रदागहे विकिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निव बन्धुताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीना मुखाकृधे सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या तेषाकम् सहस्रयोजने वधन्वानि तन्मसे अस्मिन्महत्यर्णवेन्दरिक्षे भवा अधे नीलग्रेवाश्रितिकण्ठा शर्वा अधः क्षमाचराः नीलग्रेवाश्रितिकण्ठा दिवगम् रुद्रा उपश्रुताः ये वृक्षेषु सस्पिञ्जरा नीलग्रेवा विलोहिताः ये भूतानामधिपतयो विशिकास कबर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिपतो जनान् ये पदाम् पदिरक्षय ऐलभृता यव्युतः ये तीर्थानि प्रचरन्ति श्रृकावन्तो निषङ्गिणः य एतावन्तश्च भूयाकंसश्च दिशो रुद्रावितस्थिरे तेषाकम् सहस्रयोजने वधन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् एन्दरिक्षे ये दिवे येषामन्नम् वातो वरुषमिषभस्तेभ्यो దశ ప్రాచీర్దశ దక్షిణా దశ ప్రతిచీర్దశోదేచిర్ దశోర్ధ్వాస్తేభ్యో నమస్తే నో మృడయన్ ధృతేయం ద్విష్మో యశ్చ నో ద్వేషితం భోజం భేదధామి త్రయంబకం యజామహే సుగంధిం పుష్టివర్ధనం ఉర్వారుకమివ బంధనాత్ మృత్యోర్ముక్షేయమామృతాత్ యో రుద్రో అగ్నౌ యో అప్సుయ ఔషధీషు యో రుద్రో విశ్వా భువనా వివేశ తస్మై రుద్రాయ నమో అస్తు ఏతే సహస్రమయుధం పాశా మృత్యోమర్త్యాయ హంతవే తాన్ యజ్ఞస్య మాయయా సర్వానవ యజామహే మృత్యవే స్వాహా మృత్యవే స్వాహా ప్రాణానాం గ్రంథిరసి రుద్రో మా విశాంతకః తేనాన్నేనాప్యాయ స్వా నమో రుద్రాయ విష్ణవే మృత్యుర్మే పాహి తముష్టు యశ్విషుసుధన్వాయు విశ్వస్య క్షయతి భేషజస్య యక్ష్వా మహేశో మనసాయ రుద్రం నమోభిర్దేవమసురం దువస్య అయం మే హస్తో భగవాన్ అయం మే భగవత్తరః అయం మే విశ్వవేష జోయగు శివాభిమర్శన ఓ శాంతి 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 శంచ మే మయశ్చ మే ప్రియం చ మేను కామశ్చ మే కామశ్చ మే సౌమనసశ్చ మే భద్రం చ మే శ్రేయశ్చ మే వశ్యశ్చ మే యశశ్చ మే భగశ్చ మే త్రివిణం చ మే యుందా చ మే ధర్తా చ మే క్షేమశ్చ మే ధృతిశ్చ మే విశ్వం చ మే మహశ్చ మే సంవిశ్చ మే జ్ఞాత్రం చ మే సోశ్చ మే ప్రసోశ్చ మే శ్రీరం చ మే లయశ్చ మరుతం చ మే మృతం చ మే యక్ష్మం చ మే నామయచ్చ మే జీవాతశ్చ మే దీర్ఘాయుత్తం చ మేన మిత్రం చ మే భయం చ మే సుఖం చ మే శయనం చ మే సోషా చ మే సుధినం చ మే ఓం శాంతి 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 తచ్చయోరావృణీమహే గాతుం యజ్ఞాయ గాతుం యజ్ఞపదయే దైవే స్వస్తిరస్తు నః స్వస్తిర్మానుషేభ్యః ఊర్ధ్వం జిగాతు భేషజం షన్నో అస్తు ద్విపదే షన్ చతుష్పదే ఓం శాంతి 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 సహస్రశేష పురుష సహస్రాక్ష సహస్రపాద్ సభూమిం విశ్వతో భృత్వా అత్యధిష్టదశాంగులం పురుష ఏవేదగుం సర్వం యద్భూతం యచ్చ భవ్యం ఉతామృతత్వస్యేషానః యదన్నేనాతిరోహతి ఏతావానస్య మహిమా అథో జాయాగుశ్చ పురుషః పాదోస్య విశ్వాభూతాని త్రిపాదస్యామృతం దివి త్రిపాదూర్ధ్వ ఉదైత్ పురుషః పాదో సేహా భవాత్ పునః తథో విశ్వం వ్యక్రామత शाशनानशने अभि तस्माद् विराट जायता विराजो अधिपुरुषः सजातो अत्यरिच्यता पश्चात् भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमदन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्म इत्म शरद्दविः सप्तास्यासन् परिधयः त्रिसप्तः समित कृताः देवा यद्यज्ञम् तन्वानाः अभद्रन् पुरुषम् पशुम् तै यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्ता साध्यार्षयश्च ये तस्माद्यज्ञात् सर्वहुतः सम्भृतम् वृषदाज्यम् पशोगंसागंश्चक्रे वायव्यान आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः ऋजः सामानि जज्ञिरे छन्दाकुंसि जज्ञिरे तस्मात् यजस्तस्मादजायत तस्मादश्वा अजायन्त एके चोभयादतः गावो हजज्ञिरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यदतुः कविता व्यकल्पयन् मुखम् किमस्य कौ बाहु का भूरुपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहोराजन्यकृतः ऊरुदतस्य यद्वैष्यः पद्भ्यागुम् श्रोत्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शेष्णोद्यो समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विजित्य धीरः नामानि कृत्वाभिवदन्यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रः प्रविद्वान् प्रतिशश्च तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सजन्ते यत्र पूर्वे साध्या सन्ति देवाः अभ्यस्वम्भोद पृथिवेरसाच विश्वकर्मणः समवर्ततादि तस्य त्वष्टा विदद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्धः अजायमानो बहुधा विजायते तस्य धीरा परिजानन् धियोनिम् मरीचीनाम् पदमिच्छन्ति वेदसः यो देवेभ्य आतपति यो देवानां पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचं ब्राह्मं जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवं ब्राह्मणो विद्यात् तस्य देवा असन्वशे ह्रीष्यते लक्ष्मी च पत्न्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यातम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा ॐ तच्छयोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्धम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शन्ततुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ योपां पुष्पं वेदा पुष्पवान् प्रजावान् पशुवान् भवति चन्द्रमा वा अपां पुष्पम् पुष्पवान् प्रजावान् पशुवान् भवति य एवं वेदा योपामायतनं वेदा आयतनवान् भवति अग्निर्वा अपामायतनम् आयतनवान् भवति यो अग्नेरायतनम् वेदा आयतनवान् भवति आपो वा अग्नेरायतनम् आयतनवान् भवति य एवं वेदा योपामायतनम् वेदा आयतनवान् भवति वायुर्वा अपामायतनम् आयतनवान् भवति यो वायोरायतनम् वेदा आयतनवान् भवति आपो वै वायोरायतनम् आयतनवान् भवति य एवं वेदा योपामायतनम् वेदा आयतनवान् भवति असो वै तपन्नपामायतनम् आयतनवान् भवति यो मुष्यतपत आयतनम् वेदा आयतनवान् भवति आपो वा अमुष्यतपद आयतनम् आयतनवान् भवति य एवं वेदा योपामायतनम् वेदा आयतनवान् भवति चन्द्रमा वा अपामायतनम् आयतनवान् भवति यश्चन्द्रमस आयतनम् वेदा आयतनवान् भवति आपो वै चन्द्रमस आयतनम् आयतनवान् भवति य एवं वेदा योपामायतनम् वेदा आयतनवान् भवति नक्षत्राणि वा अपामायतनम् आयतनवान् भवति यो नक्षत्राणामायतनम् वेदा आयतनवान् भवति आपो वै नक्षत्राणामायतनम् आयतनवान् भवति य एवं वेदा योपामायतनम् वेदा आयतनवान् भवति पर्जन्यो वा अपामायतनम् आयतनवान् भवति यः पर्जन्यस्यायतनम् वेद आयतनवान् भवति आपो वै पर्जन्यस्यायतनम् आयतनवान् भवति य एवम् वेद योपामायतनम् वेद आयतनवान् भवति संवत्सरो वा अपामायतनम् आयतनवान् भवति यः संवत्सरस्यायतनम् वेद आयतनवान् भवति आपो वै संवत्सरस्यायतनम् आयतनवान् भवति य एवम् वेद योऽप्सुनाभम् प्रतिष्ठिताम् वेद प्रत्येव तिष्ठति राजाय राजाय प्रसख्य साहिने नमो वयम् वै श्रवणाय कुर्महे स मे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो ददातु कुबेराय वै श्रवणाय महाराजाय नमः ॐ शान्ति शान्ति शान्तिः भद्रम् कर्णेभिः शृणुयामदेवा भद्रम् पश्ये वाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवागुंसस्तनोभिः विषेम देवहितम् यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पोषा विश्ववेदाः स्वस्ति नस्ताक्षो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्ददातु ॐ शान्ति शान्ति शान्तिः ॐ नमस्ते गणपतये त्वमेव प्रत्यक्षम् दत्त्वमसि त्वमेव केवलम् कर्तासि त्वमेव केवलम् धर्तासि त्वमेव केवलम् हर्तासि त्वमेव सर्वम् कल्विदम् ब्रह्मासि त्वम् साक्षादात्मासि नित्यम् हृदम् भस्मे सत्यम् भस्मे अवत्वम् माम् अववक्तारम् अवश्रोतारम् अवधातारम् अवधातारम् अवानोचानमवशिष्यम् अवपश्चादात् अवपुरस्तात् अवोत्तरातात् अवदक्षिणातात् अवचोद्वातात् अवाधरातात् सर्वतो मां पाहि पाहि समन्दात् त्वं वाङ्मयस्त्वं चिन्मयः त्वमानन्दमयस्त्वं ब्रह्ममयः त्वं सच्चिदानन्दात् देहोऽसि त्वम् प्रत्यक्षम् ब्रह्मासि त्वम् ज्ञानमयो विज्ञानमयोऽसि सर्वम् जगदिदम् त्वत्तो जायते सर्वम् जगदिदम् त्वत्र तिष्ठते सर्वम् जगदिदम् त्वयि लयमेष्यते सर्वम् जगदिदम् त्वयि प्रत्येते त्वम् भूमिरापो नलो निलो नभः त्वम् चत्वारि वा आक्पधानि त्वम् गुणत्रयातीतः त्वम् अवस्थात्रयातीतः त्वम् देहत्रयातीतः त्वं कालत्रयातीतः त्वं मूलाधारस्थितोऽसि नित्यम् त्वं शक्तित्रयात्मकः त्वां योगिनो ध्यायन्ति नित्यम् त्वं ब्रह्मास्त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्मपूर्भुवस्वरो गणादिं पूर्वमुच्चार्य वर्णादे सदनन्तरम् अनुस्वारः परतरः अर्थेन्दुरसितम् तारेण रुद्धम् एतत्तवमनुस्वरूपम् गकारपूर्वरूपम् अकारो मध्यमरूपम् अनुस्वारस्य आन्द्यरूपम् बिन्दुरुत्तररूपम् नाथः सन्धानम् सगुंहिता सन्धिः सैषा गणेश विद्या गणक ऋषिः निजद्गायत्री छन्दः गणपतिर्देवता ॐ गं गणपतये नमः एकदण्डाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्दिः प्रचोदयात् एकदन्तम् चतुर्हस्तम् पाशमङ्गुशधारिणम् रथम् च वरदम् हस्ते बिभ्राणम् मोषकध्वजम् रक्तम् लम्बोदरम् शूर्पकर्णकम् रक्तवाससम् रक्तगन्धानुलिप्ताङ्गम् रक्तपुष्पै सुपूजितम् भक्तानुकम्बिनम् देवम् जगत्कारणमच्युतम् आविर्भूतम् च सृष्ट्यादौ प्रकृते पुरुषात् परम् एवम् ध्यायति यो नित्यम् स योगी योगिनाम् वरः नमो राजपतये नमो गणपतये नमः प्रमथपतये नमस्ते स्थूलम्भोदरायेकदन्ताय विघ्ननाशिने शिवसुताय वरदमूर्तये नमः ॐ शान्ति शान्ति शान्तिः पुरुषस्य विद्मसः साक्षस्य महादेवस्य धीमहि तन्नो रुद्रः प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्दिः प्रचोदयात् तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि तन्नो दन्दिः प्रचोदयात् तत्पुरुषाय विद्महे महासेनाय धीमहि तन्न षण्मुख प्रचोदयात् तत्पुरुषाय विद्महे सुवर्णपक्षाय धीमहि तन्नो गरुडः प्रचोदयात् वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि तन्नो ब्रह्म प्रचोदयात् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् वज्रनखाय विद्महे तीक्ष्णदघृष्टाय धीमहि तन्नो नारसिगुंह प्रचोदयात् भास्कराय विद्महे महद्युतिकराय धीमहि तन्नो आदित्यः प्रचोदयात् वैश्वानराय विद्महे लालीलाय धीमहि तन्नो अग्निः प्रचोदयात् कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गिः प्रचोदयात् ॐ सायेश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्वः प्रचोदयात्। ॐ शान्ति शान्ति शान्तिः। स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महेमहेशाः। गोब्राह्मणेभ्यः शुभमस्तु नित्यम्। समस्तलोकाः सुखिनो भवन्तु। समस्तलोकाः सुखिनो भवन्तु। समस्तलोकाः सुखिनो भवन्तु। ॐ शान्ति शान्ति शान्ति।